इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् अस्मिन् वर्षे नवरात्रि उत्सवः वस्तु सेवा कर महोत्सवात् आरभ्यते इति। अतीव विशेषः अस्ति। सः अवदत् यत् अस्मिन् वर्षे नवरात्रि उत्सवः जीएसटी बचत महोत्सवेन आरभ्यते। अनेन कारणेन अतीव विशिष्टः अस्ति। अग्रिम परम्परायाः वस्तु सेवाकर विषये प्रधानमन्त्रिणा उक्तं यत् अस्य परिष्कारेण बृहत्तम संख्यायां लाभार्थिन्यः महिलाः अपि अन्यतमाः भविष्यन्ति। सः उक्तवान् यत् एतेषां परिष्काराणां कृते मासिक गृहव्यये न्यूनता भविष्यति, सुरक्षायां वृद्धिः च भविष्यति। नवरात्रौ क्रियान्वितस्य नूतनस्य जीएसटी दरेण सह जीएसटी वस्तु सेवा कर बचत महोत्सवः इति आह्वयत्, येन बहवः वस्तूनि न्यूनमूल्ये अभवन्। प्रधानमन्त्रिणा नरेन्द्रमोदिना यहूदी समुदायाय, इज़राइल देशस्य जनानां च कृते यहूदी नववर्षस्य रोष हसनाः इत्यस्य शुभावसरे शुभाशयाः प्रदत्ता। एकस्मिन् सामाजिकान्तर्जालीये सन्देशे श्रीमोदी आसां प्रकटितवान् यत् नूतनवर्षं प्रत्येकस्य जीवने शान्तिम् आसां सुस्वास्थ्यं च आनेष्यति इति। फ्रांस देशस्य राष्ट्रपतिः इमैनुअल मैक्रों वर्यः औपचारिकरूपेण फ्रांस देशेन फिलिस्तीन राज्यं मान्यताम् अघोषयत्। अद्य न्यूयॉर्क नगरे संयुक्त राष्ट्र महासभायाः 80तम सत्रात् प्राक् एतत् कर्तुं नवीनतमं पाश्चात्य राष्ट्रम् अभवत्। असैन्य परमाणु ऊर्जा विषयकस्य भारत फ्रांस विशेष कार्यबलस्य द्वितीयं सम्मेलनं ह्यः नवदिल्ल्याम् अभवत्। ह्यः विदेश सचिवः विक्रम मिश्री यूरोप तथा विदेश कार्याणां फ्रांस मन्त्रालयस्य महासचिवः एनी मैरी डेस्कोट्स इत्येषा च अस्य सह अध्यक्षतां कृतवती। विदेश मन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् अस्मिन् सम्मेलने उभौ पक्षौ विगत वर्षस्य प्रगति विषये विविध सम्मेलनानां परामर्शानां च माध्यमेन विस्तृत समीक्षां कृतवन्तौ। अद्य नवदिल्ल्याम् एकसप्ततितमे राष्ट्रिय चलचित्र पुरस्कार समारोहे राष्ट्रपति द्रौपदी मुर्मू विजेतृभ्यः पुरस्कारान् प्रदास्यति। सर्वश्रेष्ठ फीचर फिल्म पुरस्कारं हिन्दी चलचित्राय 12th फेल इत्यस्मै प्रदीयते, तथा च सर्वश्रेष्ठ हिन्दी चलचित्र पुरस्कारं हिन्दी चलचित्राय कटहल अ जैकफ्रूट मिस्ट्री इत्यस्मै प्रदीयते। सर्वश्रेष्ठ अभिनेता वर्गे राष्ट्रिय चलचित्र पुरस्कारः अभिनेता शाहरुख खान इत्यस्मै तस्य जवान इति चलचित्राय दीयते, तथा च अभिनेता विक्रम मैसी इत्यस्मै 12th फेल इति चलचित्राय प्रदास्यते। सुप्रसिद्धः अभिनेता निर्देशकः चलचित्र निर्माता च मोहनलालः अपि 23-अधिक-2000 वर्षस्य प्रतिष्ठितस्य दादा साहेब फाल्के पुरस्कारेण सम्मानितः भविष्यति। गोवा राज्यस्य अखिल भारतीय आयुर्वेद संस्थायाम् अद्य 10th राष्ट्रिय आयुर्वेद दिवसः आचर्यते, यत् पारंपरिक रीत्या भारतीय चिकित्सायाः वैश्विक प्रचारे ऐतिहासिकं सोपानं भविष्यति। अस्य उत्सवस्य उद्घाटनं आयुष मन्त्रालयस्य केन्द्रीय राज्यमन्त्री प्रताप राव जाधव वर्येण क्रियते। अस्मिन् वर्षे आयुर्वेद दिवसस्य विषयः अस्ति आयुर्वेद फॉर पीपल्स आयुर्वेद फॉर प्लैनेट इति। मलेशियायाम् आगामि सुल्तान ऑफ जौहर कप क्रीडायाः कृते हॉकी इंडिया दलेन 18-सदस्यात्मकस्य भारतीय कनिष्ठ पुरुष हॉकी इति दलस्य घोषणा कृतास्ति इति वार्ताः।